सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ।
धन्यवादः महोदय।
सम्यक् महोदय।
सर्वेभ्यो नमः, नमस्कारः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विशेषणविशेष्यभावः। तस्मिन् विषये वयम् एकां कथां पठितवन्तः, शिवराजः आदिल् खान् तयोः मेलनस्य विषये एकां कथां पठितवन्तः। तदनन्तरं केचन अभ्यासाः ये सन्ति कथायाः अनन्तरं तान् अभ्यासान् अपि कृतवन्तः। इदानीं तत्र पुटसङ्ख्या 43 तत्र स्मः इति मन्ये। लक्ष्मी भगिनी नमस्कारः।
नमस्कारः महोदय।
नमस्कारः भगिनी। अतः तत्र अग्रे गच्छामः। तत्र पुटसङ्ख्या 43 मध्ये तत्र पञ्चम अभ्यासः आरम्भं कृतवन्तः इति मन्ये। तत्र प्रायशः महत् स्यन्दनमस्ति, तेन गच्छति, ततः आरम्भं करणीयम् इति मन्ये। समीचीनं वा, कोऽपि स्मरति वा? नो चेत् तत्र आरम्भतः कुर्मः। महत् स्यन्दनं खलु भगिनि? हा, अस्तु अस्तु, समीचीनं, धन्यवादः भगिनि। अस्तु अस्तु, तर्हि तत्र भवती एव आरम्भं करोति वा? पुटसङ्ख्या 43 महत् स्यन्दनम् अस्ति, तेन गच्छति इति। एकवारम् एकवारं भगिनि तत्र एतत् करोतु। तत्र उदाहरणवाक्यं यद् दत्तमस्ति तद् एकवारं पठित्वा भवती न न तत्र उपरि तत्र विनीतः सञ्जयः अस्ति इति।
ओ, विनीतः सञ्जयः अस्ति। त्वं धृतराष्ट्रं वदति।
धृतराष्ट्रः वदति।
धृतराष्ट्रः वदति। तं धृतराष्ट्रः वदति।
इदानीं तत्र वाक्यद्वयं दत्तमस्ति। अस्माकं कार्यं किं तत्र? वाक्यद्वयं स्वीकृत्य एकवाक्यं करणीयम्।
ओके।
अतः वाक्यं किं भवति तत्र उदाहरणे? विनीतं सञ्जयं धृतराष्ट्रः वदति।
विनीतः सञ्जयः धृतराष्ट्रः वदति।
न न न, विनीतः सञ्जयः अस्ति अस्ति इति भवति चेत् तत्र कर्मपदं भवति वा? न खलु। अतः तत्र प्रथमविभक्तिरूपमेव अस्ति। विनीतः सञ्जयः अस्ति। कीदृशः सञ्जयः? सः विनीतः।
विनीतः सञ्जयः
अस्ति। तं धृतराष्ट्रं वदति। धृतराष्ट्रं कं वदति? सञ्जयः यः अस्ति तं वदति। धृतराष्ट्रं न वदति, धृतराष्ट्रः एव वदति। धृतराष्ट्रः कर्तृपदम्, वदति क्रियापदं, कं वदति? सञ्जयं वदति। विनीतं सञ्जयं धृतराष्ट्रः वदति इति। इदानीम् अत्र अस्मिन् वाक्ये इदानीं महत् स्यन्दनम् अस्ति।
महत् स्यन्दनम् अस्ति।
तेन गच्छति, तेन गच्छति इति अस्ति। तेन इत्युक्ते केन?
स्यन्दनेन।
स्यन्दनेन, समीचीनम्। अस्तु, इदानीं तत्र स्यन्दनेन, तेन स्यन्दनेन गच्छति। कीदृशस्यन्दनं, कीदृशं स्यन्दनं तत्?
महता स्यन्दनेन।
हा, समीचीनं भगिनि, महता स्यन्दनेन गच्छति, समीचीनं भगिनि। अतः तत्र विशेषणम् अस्ति, अतः विशेषणस्य अपि तृतीया विभक्ति एव भवतु इति. समीचीनं भगिनि, अस्तु समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनि.
आं महोदय, अद्वेष्टा भक्तः अस्ति, ईश्वरः तम् इच्छति. ईश्वरः
तत्र प्रथमतया भक्तः भक्तः इति करोति. ईश्वरः कम् इच्छति?
ईश्वरः भक्तं
भक्तं तं भक्तम् इच्छति. इदानीं कीदृशः भक्तः सः?
ईश्वरः अद्वेष्टां भक्तः इच्छति.
हा, किन्तु अद्वेष्टा इति तत् कीदृशपदं, तत् लिङ्गं किं तस्य पदस्य?
स्त्रीलिङ्गं.
किन्तु भक्तः अस्ति खलु तत्र.
ओ हा, अद्वेष्टा अद्वेष्टा भक्तः इत्युक्ते
हा, तत्र रुकारन्तपदमस्ति. पिता इव, पिता इव. अद्वेष्टृ इति पुल्लिङ्गपदं, पुल्लिङ्गपदम् अद्वेष्टृ ऋकारान्तपदम्.
हा, ऋकारान्त इत्युक्ते
तत्र कर्ता इति.
हा, कर्तारं तु अद्वेष्टारं भक्तम् इच्छति. ईश्वरः अद्वेष्टारं भक्तम् इच्छति.
क्षम्यतां. समीचीनं भगिनि. हा, ईश्वरः तम् इच्छति, अद्वेष्टा भक्तः अस्ति, ईश्वरः तं भक्तम् इच्छति. कीदृशः भक्तः? अद्वेष्टा भक्तः सः. अतः ईश्वरः अद्वेष्टारं भक्तम् इच्छति. समीचीनं भगिनि. हा, अस्तु अग्रे तत्र शुभदा भगिनि अग्रे. दिव्यं चक्षुः.
ओके, दिव्यं चक्षुः अस्ति, पार्थः तेन विश्वरूपं दृष्टवान्. दिव्यं चक्षुः इति नपुंसकलिङ्गे, अतः दिव्येन चक्षुना पार्थः विश्वरूपं दृष्टवान्.
दिव्येन चक्षु
चक्षुना
चक्षु इति उकारन्त पुल्लिङ्गपदं नास्ति खलु भगिनि? गुरुपदवत् नास्ति. हा, हलन्तपदं, हलन्तपदं चक्षुषि, चक्षुष, चक्षुष, चक्षुषि, चक्षूंषि.
तृतीया विभक्ति किं भवति?
चक्षुषा.
ओके, दिव्येन चक्षुषा पार्थः विश्वरूपं दृष्टवान्.
हा, समीचीनं. चिन्ता मास्तु भगिनि, एतदर्थमेव तत्र अभ्यासं भवतु इति एव खलु, अतः चिन्ता मास्तु भगिनि.
अकस्मात् मनसि न आगच्छति?
सत्यं भगिनि, सत्यमेव. तत्र अस्माकं मनसि अस्ति, तत्र किं, तत्र रिकलेक्षन् एरर् अथवा तत्र सर्वदा भवति. चिन्ता मास्तु भगिनि, अतः अभ्यासः अभ्यासः वदतु महोदय.
दोषान् कुर्मः चेत् अभ्यासः सम्यक् भवति. सम्यक्तया वदन्ति चेत् तस्य अभ्यासः न भवति.
तत्र
अन्य विकल्पः अस्ति वा इति
वयं
किमर्थं तद् न भवति
सर्वं ज्ञानं भवति अभ्यासेन एव.
मधु एव अस्ति वा? मधु उकारान्त नपुंसकलिङ्गि एव न वा? चक्षु इति सेम् भवति इति अहं चिन्तितवती, परन्तु तत्तु
तद् नास्ति. किन्तु चिन्ता मास्तु, तत्र लघुबालकः अस्ति, तत्र यदि सः चलितुम् आरम्भं करोति, तत्र चलति पतति, चलति पतति, एतादृश एव अस्माकं एतादृशी एव अस्माकं स्थितिः अपि खलु तत्र किञ्चित् अग्रे गच्छामः पतामः पतनं भवति किं कुर्मः अग्रे प्रयत्नं कुर्वन् स्मः कुर्वन्तः स्मः अस्तु समीचीनं भगिनि अस्तु अग्रे लक्ष्मी भगिनि
अस्तु महोदय महती निशा अस्ति तस्यां
संयमी
जागर्ति महती निशा महती स्त्रीलिङ्गपदं निशा
समीचीनं समीचीनं तस्याम् इति तस्यम् इति अतः विभक्ति का अपेक्षिता अत्र
महत्यां निशायां संयमी जागर्ति
हा समीचीनं भगिनि तत्र संयमी यस्य यः मनसः संयमः कृतवान् संयमं कृतवान् इति तत्र हा तत्र तत्र संन्यासी इव तत्र वयं गीतासोपने प्रथमभागे दृष्टवन्तः खलु तत्र योगी अस्ति तत्र तत्र संयमं कृत्वा तत्र तादृश तत्र वयं सर्वे तत्र निशा भवति चेत् निद्रां कुर्मः किन्तु संयमी सः निद्रां न करोति सः जागर्ति इति अतः तत्र तस्यां महत्यां निशायां संयमी जागर्ति समीचीनं भगिनि अस्तु
महोदय महती निशा इत्युक्ते किं महोदय
तत्र महान् इति पुल्लिङ्गरूपम् अस्ति महती इति
इत्युक्ते सम्पूर्णनिशा
हा इति सत्यं भगिनि हा तत्र आध्यात्मिक अर्थः कः इति तत्र इदानीं न दत्तमस्ति भगिनि
किन्तु यदि वयमेव एकमेव निशा न निद्राति बहु महती निशा भवति अनुभवः
सत्यं सत्यं तत्र हा तत्र सत्यं तदपि हा तत्र निशा इति पदस्य विवरणं तत्र महान् निशा इति सत्यं भगिनि हा तत्र गाढनिद्रा इति तत्र गाढरात्रि इति
गाढरात्रि
तादृश
इत्युक्ते विशालरात्रि इत्युक्ते
तत्र सर्वे निद्रामेव कुर्वन्ति तस्मिन् समये
न कुर्मः बहु विशाल समय तु बहु दीर्घ
हा सत्यं सत्यं तादृश अर्थे किन्तु तस्मिन् समये अपि संयमी जागर्ति अस्तु रघुपतिमहोदय तत्र गतवर्गे तत्र उभ इति पदस्य विषये भवान् किञ्चित् प्रेषितवान् तस्मिन् विषये किञ्चित् वक्तुम् इच्छति वा महोदय तत्र यतोहि सर्वेषां लाभः भवति इति मन्ये रघुपतिमहोदय अस्तु सप्राश अन्यत्र अस्ति किन्तु
पुनः
चिन्तमस्तु इदानीं वा अथवा अनन्तरं यदा किञ्चित् वक्तुं शक्नोति यतोहि तत्र तत् सर्वे न जानन्ति इति मन्ये महोदय अतः तस्मिन् विषये किञ्चित् वक्तव्यं यत् प्रेषितवान् तद् अहम् ईमेल् द्वारा यदि प्रेषयामि तत् सम्यक् भवति वा महोदय अस्तु अतः तदेव करोमि अस्तु समीचीनं धन्यवादः अस्तु महोदय अस्तु इदानीम् अग्रे महोदय
श्रेष्ठा नारी अस्ति तस्याः नाम पाञ्चाली इदानीं नार्याः नाम पाञ्चाली श्रेष्ठायाः नार्याः नाम पाञ्चाली तस्याः श्रेष्ठायाः नार्याः नाम पाञ्चाली
हा इति समीचीनं महोदय अस्तु अग्रे रघुवीरानन्द स्वामी अग्रे
महोदय तीव्रताः क्रियते तासु श्रीः भवति तासु सप्तमी विभक्ति महोदय अतः पतिव्रताः
इदानीं तत्र तासु इति सप्तमीविभक्ति वचनं
बहुवचनं
हा समीचीनम् अतः इदानीं तत्र पतिव्रता इति आकारान्तपदं
पतिव्रतासु
इदानीं स्त्रियः स्त्री इति
स्त्रीलिङ्ग
स्त्रीषु
समीचीनं महोदय तत्र आकारान्ते सकारान्त अस्ति आकारान्तपद स्त्रीलिङ्गपदे तत्र सप्तमी बहुवचने सु इति अस्ति किन्तु इकारान्तपदमस्ति चेत् तत्र षु इति अस्ति समीचीनं पुनः एकवारं वदतु महोदय तासु
पतिव्रतासु स्त्रीषु श्रीः भवति
श्रीः भवति समीचीनं महोदय अस्तु अग्रे लक्ष्मी भगिनि
धीमान् योगी अस्ति तस्मिन् कुशलता भवति
धीमान् इति तस्य पदस्य सप्तमी धीमति समीचीनं धीमत् इति प्रातिपदिकं धीमति भवत् भवति धीमत् धीमति समीचीनम् इदानीं योगी
धीमति योगी
योगी इति पदस्य न धीमान् योगी अस्ति इदानीं तत्र योगी इति अस्ति तत्र योगी इति पदस्य सप्तमी किं किं
योगी
गुणी
यो तत्र प्रातिपदिकं किम् इति चिन्तयतु भगिनि योगिन् योगिन् अस्ति चेत् तत्र भवत् भवत् अस्ति भवत् इति पदस्य सप्तमी किम् अस्ति
भवति
अतः योगिन् इति पदस्य सप्तमी एकवचनं न योगिन् इति अस्ति भवत् इति अस्ति भवत् किं भवति भवति इति अतः ईकारः आगच्छति तत्र योगिन् इति अस्ति अतः तस्य सप्तमी एकवचनरूपं किं भवति योगिन् अनन्तरम् इकारः योगी
न स्मरामि
चिन्ता मास्तु भगिनि तत्र न भगिनि चिन्ता मास्तु तत्र केवलम् एतत् भवति तत्र भवत् शब्दस्य एकवचनरूपं विभक्तिरूपाणि जाना स्मरति खलु भगिनि तत्र भवति इति जानाति तत्र भवत् इति प्रातिपदिकं प्रातिपदिकं भवत् तदनन्तरम् ईकारः आगच्छति भगिनि तावदेव भवत् योगः ई ह्रस्व इकारः भवति तावदेव योगिन् इति प्रातिपदिकं योगिन् योगः तावदेव योगिनी ह्रस्व इकारः योगिनी इति अन्यत् अन्यत् पदं किन्तु अत्र योगिनी इदानीं समीचीनम् अतः धीमति
योगिनी
किं भवति
योगिनी कुशलता भवति
तावदेव तस्मिन् इदानीं तस्मिन् अपि योजयतु तत्र तस्मिन्
धीमति योगिनी कुशलता भवति
तावदेव समीचीनं समीचीनं वा भगिनि
अस्तु
अस्तु अग्रे सूर्यकुमारी भगिनि
महोदय सेवातत्पराः शिष्याः सन्ति तेभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति
तत्र सेवातत्पराः इत्युक्ते किम्
ये सेवा परसेवा इच्छन्ति
ये सेवा कर्तुं सिद्धाः सन्ति पराः तत्र परसेवा अस्तु अतः तत्र तत्पराः इत्युक्ते सिद्धाः तत्र सेवा कर्तुं ते सिद्धाः इच्छन्ति ते सर्वे शिष्याः तादृशाः शिष्याः तत्र सन्ति इदानीं तत्र तेभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति इदानीं तत्र क्रियापदं किम् अस्ति अस्मिन् वाक्ये
यच्छन्ति बहुवचनं
यच्छन्ति तत्र कर्मपदम् अस्ति वा
ज्ञानम्
ज्ञानम् इति अस्ति अस्तु ज्ञानं यच्छन्ति. कः ज्ञानं अथवा के ज्ञानं यच्छन्ति?
सेवा तत्परे.
न तत्र तत् भिन्नं वाक्यं खलु भगिनि. इदानीम् अस्मिन् वाक्ये तेभ्यः आरभ्य तत्र तस्मिन् वाक्ये कर्तृपदं भवेत् खलु?
तेभ्यः
इति विभक्ति का प्रथमविभक्तिरूपं वा? बहुवचनम् इति अस्तु. हा बहुवचनं, किन्तु विभक्ति का तत्र तस्य पदस्य? यच्छन्ति यच्छन्ति अस्ति चेत् तत्र वयं जानीमः तत्र
महोदय
यच्छन्ति अस्ति चेत् किं भवति भगिनि? तत्र यच्छन्ति अस्ति चेत् का विभक्ति वाक्ये भवेत्?
तेभ्यः ज्ञानं यच्छन्ति.
अतः तेभ्यः इति विभक्ति का?
तेभ्यः
यच्छन्ति 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 अस्ति चेत् ददाति यच्छन्ति.
बहुवचनं महोदय.
किं भगिनि?
पञ्चमी बहुवचनं.
चतुर्थी चतुर्थी भगिनि. रामाय नमः, रामाय पुस्तकं ददामि. तत्र यत्र दानमस्ति तत्र चतुर्थी सम्प्रदानम्. हा इदानीं तत्त्वदर्शिनः इति कर्तृपदं. तत्त्वदर्शिनः ज्ञानं यच्छन्ति. ये तत्र तत्त्वदर्शिनः इति पदस्य प्रथम एकवचनरूपं किम् अस्ति? दर्शिन् प्रातिपदिकं नकारान्तपदं. हा तत्त्वदर्शिन् तत्त्वदर्शीन् तत्त्वदर्शी तत्त्वदर्शिनौ तत्त्वदर्शिनः. समीचीनं. तत्त्वदर्शिनः हा तत्त्वदर्शी तत्त्वदर्शिनौ तत्त्वदर्शिनः. इदानीं तत्त्वदर्शिनः ज्ञानं यच्छन्ति. इदानीं प्रश्नः, केभ्यः ज्ञानं यच्छन्ति ते? इत्युक्ते केभ्यः? शिष्याः सन्ति. शिष्याः सन्ति चेत् तत्र अन्वयः सर्वदा किं भवति भगिनि? तत्र एकं वाक्यम् अस्ति, द्वितीयवाक्ये तत्र वयं वदामः रामः वनं गच्छति सः इति. तदनन्तरं यदि वदामः तत्र सः इत्युक्ते कः?
रामः सः लक्ष्मणः.
न केवलं तत्र रामः वनं गच्छति. तदनन्तरं द्वितीयवाक्ये सः इति पदम् अस्ति चेत् वयं किम् अवगच्छामः? सः इत्युक्ते रामः. पूर्वस्मिन् वाक्ये कर्तृपदं यत् अस्ति तत्र एव अन्वयः भवति खलु? यदि वयं सः इति वदामः अत्रापि तत्र तेभ्यः इति अस्ति. तेभ्यः इत्युक्ते अतः पूर्वस्मिन् वाक्ये कर्तृपदं किम् इति द्रष्टव्यं. कर्तृपदं किम् अस्ति पूर्व प्रथमे वाक्ये? तत्र सन्ति इति क्रियापदं. के सन्ति?
शिष्याः
सन्ति. शिष्याः सन्ति. अतः तत्र तेभ्यः इत्युक्ते अत्र अन्वयः कुत्र अस्ति? शिष्याः इति पदे. इदानीं तत्र किं करणीयम्?
ओके,
सेवातत्परः. सेवातत्परः एकनिमिष तत् त्यजतु. इदानीं केवलं शिष्याः इति, शिष्याः इति अस्ति
तस्य
शिष्येभ्यः. अस्तु, इदानीं तत्र वाक्यं किं भवति? तेभ्यः शिष्येभ्यः तत्त्वदर्शिनः यच्छन्ति. इदानीं प्रश्नः अस्ति, कीदृशः शिष्याः ते?
सेवातत्परेभ्यः.
हा सेवा तत्परेभ्यः शिष्येभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति. समीचीनं भगिनि. हा तावदेव. हा तेभ्यः सेवातत्पराः शिष्याः सन्ति. तेभ्यः सेवातत्परेभ्यः शिष्येभ्यः तत्त्वदर्शिनः ज्ञानं यच्छन्ति. अस्तु, समीचीनम्. अस्तु, अग्रे शुभदा भगिनि.
आं महोदय. शुश्रूषुः अर्जुनः तस्मै कृष्णः ज्ञानं दत्तवान्. पूर्ववाक्यम् आसीत् खलु तदेव तादृशमेव दत्तवान् इति यच्छन्ति तस्मै इति चतुर्थी विभक्ति भवति अतः शुश्रुषु शुश्रुषु इति गुरुवत् सो शुश्रुषवे अर्जुनाय कृष्णः ज्ञानं दत्तवान्
हा समीचीनं भगिनि अतः तत्र तस्मै इत्युक्ते कुत्र अन्वयः अर्जुनः अतः तस्मै तस्मै अर्जुनाय कृष्णं कृष्णः ज्ञानं दत्तवान् कीदृशः अर्जुनः शुश्रूषुः अर्जुनः शुश्रूषुः इत्युक्ते यस्मिन् श्रोतुम् इच्छा अस्ति सः शुश्रूषुः यस्मिन् यस्मिन् मोक्षस्य इच्छा अस्ति सः मुमुक्षुः यस्मिन् श्रोतुम् इच्छा अस्ति सः शुश्रूषुः अतः अर्जुनः श्रोतुम् उत्सुकः अस्ति अतः सः शुश्रूषुः तादृशः अर्जुनाय कृष्णः ज्ञानं दत्तवान् अतः तस्मै शुश्रूषवे अर्जुनाय कृष्णः ज्ञानं दत्तवान् समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि
एकम् अपरम् अर्थमपि अस्ति वा महोदय शुश्रूषा इति केर् गिविङ्ग् और् नर्सिङ्ग्
हा तत्र शुश्रूष हा तदपि भवति भवेत् भगिनि न जानामि तत्र हा किन्तु अत्र तु तत्र रूपं एतदस्ति तत्र श्रोतुम् इच्छति अतः एव तत्र कृष्णः तस्मै ज्ञानं दत्तवान्
तादृश अस्ति महोदय तत्र तादृश पश्यमस्ति अत्रापि अस्ति सेवा सेवा इत्यर्थे भवति
किं महोदय
सेवा इत्यर्थे भवति सेवा इत्यर्थे भवति
रुग्णस्य सेवा इत्यर्थे रुग्णस्य
प्रादेशिकभाषायाम् अस्ति खलु
अस्ति
प्रादेशिकभाषायां सर्वत्र अस्ति तादृश अत्रापि संस्कृतभाषा सेवा अत्र नास्ति
अत्र नास्ति इति
अत्र रुग्णः नास्ति मानसिकरुग्णः अस्ति खलु
किन्तु सः एव रुग्णः अन्य अतः तत्र स्वसेवा एव भवति अतः तत्र
महोदय शुश्रूषे वा शुश्रूषवे वा
शुश्रूषवे गुरवे इति गुरुः इति प्रातिपद गुरुः प्रथमविभक्तिरूपं किन्तु चतुर्थीविभक्तिरूपं गुरवे अतः तत्र शुश्रूषुः शुश्रूष
चिन्तयामि चक्षुः इति
हा तद् भिन्नमस्ति भगिनि हा एतत्तु पुल्लिङ्गपदमस्ति भगिनि चक्षुष इति नपुंसकलिङ्गपदं हा एतत् पुल्लिङ्गपदं शुश्रूषुः मुमुक्षुः अतः तत्र पुल्लिङ्गपदम् एतत् अस्तु अस्तु गीताञ्जलि भगिनि
शुश्रूषुवे महोदय
शुश्रूषवे शकारः उ इति न शू न शुश्रूषवे गुरवे अतः शुश्रूषवे अर्जुनाय अस्तु गीताञ्जलि भगिनि
आसुरी योनिः अस्ति तस्यां मूढाः जन्म प्राप्नुवन्ति
इदानीं तत्र तस्याम् इति अतः विभक्ति
सप्तमी
सप्तमी
स्त्रीलिङ्ग सप्तमी एकवचन तदनन्तरं योनिः मतिवत् अस्ति
मतिवत् अस्ति मतिवत् अस्ति भगिनि समीचीनम्
इत्युक्ते मत्यां
मत्यां
मत्यां तस्यां मत्यां न न
समीचीनं तदपि तदपि वक्त्वा उक्त्वा
योन्यां मूढाः जन्म प्राप्नुवन्ति आसुरी इति तु नदीवत् अस्ति स्त्रीलिङ्गम् अपि नद्यां सारी आसुर्यां योन्यां तस्यां मूढाः जन्म प्राप्नुवन्ति
समीचीनं भगिनि हा तस्याम् आसुर्यां योन्यां मूढाः जन्म प्राप्नुवन्ति तत्र जन्म इति कर्तृपदं वा कर्मपदं वा
जन्म जन्म तु कर्मपदं
कर्मपदं हा कर्मपदं समीचीनं भगिनि हा
कीदृशपदं महोदय जन्म
जन्म इति अहं चिन्तयामि तद् नपुंसकलिङ्गपदं जन्मन् इति जन्मन् जन्मनि जन्मानि इति वा महोदय कर्मणि कर्माणि तत्र जन्मन् जन्मनि जन्मानि अतः तत्र जन्म प्राप्नुवन्ति इति समीचीनम् अस्तु अस्तु अग्रे रघुवीरानन्दस्वामी
सूर्यवंशप्रभवः इक्ष्वाकुः अस्ति तस्मै मनुः योगम् अब्रवीत् तस्मै अब्रवीत् कस्मै चतुर्थी विभक्ति अतः सूर्यवंशप्रभवाय इक्ष्वाकुः
गुरुशब्दवत्
इक्ष्वाकवे मनुः योगम् अब्रवीत्
हा समीचीनं हा तस्मै सूर्य वंशप्रभवाय इक्ष्वाकवे
ओ महोदय तस्मै अपि पूर्वं
हा तत्र यदि तत्र प्रायशः आवश्यकता नास्ति महोदय किन्तु यदि वदामः तत्र मनसि स्पष्टता भवति इति तावदेव अभ्यासार्थं नो चेत् तत्र मम अस्माकं मनसि तत्र तस्मै इति पदस्य अन्वयः कुत्र इति किञ्चित् क्लेशः भवति किन्तु एतादृशी शैली अस्ति चेत् सुलभः भवति तावदेव
आं महोदय यदि भवान् वक्तुम् इच्छति चेत् पूर्वकक्षायां प्रायः पूर्वस्मिन् कक्षायां विशेषणं कः इति कथं निर्मितवान्
हा तत्र एतद् आसीत् महोदय तत्र कुत्र अस्ति हा तत्र पुटसङ्ख्या 38 पश्यतु महोदय तत्र पुटसङ्ख्या 38 तत्र मध्यभागे रक्तवर्णे तत्र चित्रत्रयम् अस्ति खलु तत्र सुन्दरः कृष्णः उन्नतमासनम् अपि मुग्धा बालिका इति खलु महोदय प्राप्तवान् वा तत्
प्राप्तं महोदय
हा अतः तत्र मध्ये यदस्ति वाक्यत्रयं रक्तवर्णे तद् एकवारं पठतु महोदय
क्षम्यतां महोदय तत्र अत्र सुन्दरत्वं तथैव वा महोदय अत्र सुन्दरत्वम्
उत्तमत्वम् इति भवेत् किन्तु
क्षम्यताम् आम् उपरि तु तथैव अस्ति सुन्दरत्वम् उन्नतत्वं मुग्धत्वं च विशेषताः सन्ति विशेषतां यत् पदं सूचयति तत् विशेषणं सुन्दरः उन्नतं मुग्धा इत्येतानि विशेषणानि यस्य विशेषता उच्यते तत्पदं विशेष्यं कृष्णः आसनं बालिका इत्येतानि विशेष्यानि
हा अतः तत्र विशेषता तत्र आसनमस्ति आसने किमपि विशेषता अस्ति अतः आसनं भवति विशेष्यं यतोहि तस्मिन् आसने विशेष्यता अस्ति सा विशेष्यता का इत्युक्ते तस्य वर्णनं तस्याः वर्णनं विशेषणं करोति विशेषणं सूचयति सा विशेषता का इति अतः विशेषणं विशेषतां सूचयति अपि विशेषता कुत्र अस्ति विशेष्ये अस्ति एतदुपयुज्य हा वयं विशेष्यं किं विशेषणं किम् इति निर्णेतुं शक्नुमः
प्रथमं पदस्य अर्थं जानीयुः अनन्तरं भवति
हा तत्र सत्यं महोदय तत्र सर्वदा
अन्यथा न भवति
हा तत्र सर्वदा विशेषणं प्रथमं तदनन्तरमेव विशेष्यम् इति तत्र नियमः नास्ति. केवलं तत्र यतोहि तत्र उत्तमः रामः अस्ति इति भवति, अथवा ओ रामः सः तु उत्तमः तदपि वदामः. अतः तत्र विशेष्यम् अनन्तरं विशेषणं पूर्वम् इति न वक्तुं शक्नुमः. क्रमः एषः एव इति न वक्तुं शक्यते.
आं महोदय, अन्वयं करणीयं तत्र.
हा, तत्र किञ्चित् चिन्तनं कृत्वा एव निर्णेतुं शक्नुमः. समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनी.
धन्यवादः.
अस्तु महोदय. सात्विकं तपः अस्ति, तस्मिन् निरतः भव. सात्विकं नपुंसकलिङ्गपदं, तपः अपि नपुंसकलिङ्गपदं.
समीचीनं भगिनि.
सप्तमी तपसि. सात्विकस्मिन् तस्मिन् सात्विकस्मिन् तपसि.
न न न, सात्विकं सात्विकं तु वनम् इति वनम् इव भगिनि.
ओ, सात्विके.
हा,
तस्मिन् सात्विके तपसि निरतः भव.
हा, समीचीनं भगिनि. तस्मिन् सात्विके तपसि
निरतः भव.
निरतः भव, समीचीनं भगिनि. हा, समीचीनम्. अस्तु, रघुवीरन् रघुपति महोदय.
महोदय, पुटसङ्ख्या
44.
अहङ्कारिणी व्यक्तिः अस्ति, तस्यां शान्तिः न भवति. व्यक्तिः इति स्त्रीलिङ्गपदमस्ति, तस्यां व्यक्त्यां व्यक्तौ इति भवति इति व्यक्त्यां
मतिशब्दवत् अस्ति. अतः
मतिशब्दवत् व्यक्त्यां शान्तिः न भवति. अहङ्कारिणी इति अस्ति, अतः अहङ्कारिण्यां व्यक्त्यां शान्तिः न भवति.
हा, समीचीनं समीचीनं महोदय. तत्र अहङ्कारिणी इति स्त्रीलिङ्गरूपम् अस्ति, पुल्लिङ्गरूपम् अस्ति.
अहङ्कारिणी इति भवति, अहङ्कारिणी इति भवति, ह्रस्व भवति. अहङ्कारिन् इति अधिकारी इति.
अहङ्कारी एव. अधिकारीवत् अहङ्कारी इति पुल्लिङ्गे, स्त्रीलिङ्गे अहङ्कारिणी इनि प्रत्ययः. व्यक्तिः अस्ति, व्यक्तिः तु तत्र नियत स्त्रीलिङ्गपदम्. तत्र रमेशः अस्ति आगच्छति चेत् अपि एका व्यक्तिः आगता. सा का इत्युक्ते सा व्यक्ति रमेशः इति. अतः व्यक्तिः सत्यं सत्यं, रमेशः मम मित्रं. तत्र मित्रं तु नपुंसकलिङ्गपदम् अस्ति, किन्तु विशेषणम् इति तत्र रमेशः मम मित्रम् इति वदामः. रमेशः मित्रं, तत्र लिङ्गभेदः अस्ति. तादृश अत्रापि कः व्यक्तिः आगता इत्युक्ते रमेशः आगतः इति.
सीता मम मित्रम् इति भवति.
हा, सत्यं सत्यं महोदय.
सखी सखा इति समीचीनं.
तावदेव सत्यं महोदय.
अहङ्कारिण्यां महोदय.
अहङ्कारिण्यां नद्यां, सत्यम्. अहङ्कारिण्यां तत्र
नकारान्त अस्ति चेत् गुणिवत् भवति न महोदय?
किन्तु एतत् स्त्रीलिङ्गमस्ति, अहङ्कारिणी इति नदीवत्. व्यक्तिः इति स्त्रीलिङ्गपदमस्ति भगिनि. अतः व्यक्तिः तत्र स्थापितं किमर्थम् इत्युक्ते तत्र व्यक्तिः इति अस्ति. वयं चिन्तयामः व्यक्तिः तु तत् पुल्लिङ्गपदमस्ति, किन्तु तत् स्त्रीलिङ्गपदमस्ति, मतिवत् अस्ति. अहङ्कारिणी इति अपि स्त्रीलिङ्गमस्ति.
भवत् इत्यस्य स्त्रीलिङ्गे भवति इति अस्ति, अतः तादृशं
तादृशम्. अतः अहङ्कारिण्यां व्यक्त्यां शान्तिः न भवति. इदानीं तत्र पुरुषः इति स्वीकुर्मः, अहङ्कारी पुरुषः अस्ति, तस्मिन्
अहङ्कारिणी पुरुषे
तत्र अहङ्कारिणी इति ह्रस्व इकारः भवति. समीचीनं महोदय. अहङ्कारिणी पुरुषे, तस्मिन् अहङ्कारिणी पुरुषे शान्तिः न भवति. समीचीनं
महोदय. महोदय किं किं वक्तुमिच्छति, हलन्तपदेषु लिङ्गभेद तु
नास्ति भगिनि, नास्ति 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 एव नास्ति एव. अतः तत्र सुलभतया विभक्तिरूपं कर्तुं शक्नुमः.
किन्तु अत्र तु तत् न भवति, अत्र तु
भगिनि न न तत्र यदि वदामः तत्र लिङ्गभेदः न भवति इति यदि वदामः तत्र इच्छा का? इच्छा अस्ति तकारन्तपदं यदि स्त्रीलिङ्गतकारन्तपदं वा पुल्लिङ्गतकारन्तपदं वा तृतीयाविभक्ति अनन्तरं तृतीयाविभक्ति तदनन्तरं रूपाणि समानानि इति. किन्तु तकारान्त प्रातिपदिकं तकारान्त एव भवतु खलु.
विपत् सम्पत्
अथवा मरुत् इति. हा किन्तु
अत्र किं अस्ति,
हा किन्तु अत्र किमस्ति, अहङ्कारिण् इति पुल्लिङ्गरूपम् अस्ति, तत्तु नकारान्तपदम् अस्ति. अहङ्कारिणी इति तत्तु नदीवत् ईक दीर्घ इकारान्तस्त्रीलिङ्गरूपम् अस्ति.
प्रातिपदिकं सामान्य भवेत्, हलन्त भवेत्.
प्रातिपदिकमेव अहङ्कारिणी भवति.
हा सत्यं, स्त्रीलिङ्गे अहङ्कारिणी इति स्त्रीलिङ्गे नदीवत् अस्ति दीर्घ इकारः.
नकारान्त स्त्रीलिङ्गपदं नास्ति.
अतः अतः रूपभेदः भवति. हा हा सत्यं भगिनि, हा अतः रूपभेदः अस्ति अत्र. अतः तत्र अहङ्कारिण् इति पुल्लिङ्गे हलन्तपदम्, अहङ्कारिणी इति अजन्तपदं स्त्रीलिङ्गे. सर्वदा तत्र गुणिन् इति पुल्लिङ्गे एव अस्ति, गुणिनी इति स्त्रीलिङ्गे, तत्तु दीर्घ इकारान्तपदं.
भवतु तकारान्त अस्ति, भवती तु ईकारान्त.
हा तादृश तादृशी स्थितिः अत्र. समीचीनं भगिनि. हा
अतः पुल्लिङ्गे अस्ति तदा गुणीवत्
सत्यं सत्यं भगिनि. हा यस्मिन् अहङ्कारः अस्ति सः अहङ्कारी, यस्याम् अहङ्कारः अस्ति सः सा अहङ्कारिणी.
इत्युक्ते तकारान्त अपि नकारान्त हलन्त पुंलिङ्गपदम् अजन्तं स्त्रीलिङ्गं पदं भवति.
तत्र न तादृश न वक्तुम् इच्छामि भगिनि, किन्तु अत्र तादृशी स्थितिः अस्ति.
अत्र अस्ति, अत्र एव
तावदेव. तावदेव तत्र. हा तत्र पदस्य निर्माणं कथं भवति, अपि तस्य पुल्लिङ्गरूपं स्वीकृत्य तस्य स्त्रीलिङ्गरूपं कथं करणीयम्, अत्र अनेकाः नियमाः सन्ति खलु, अनेके नियमाः सन्ति खलु. अतः तत्र हा किं भवति इति इदानीं मास्तु. किन्तु अत्र तु तादृशी स्थितिः अस्ति, पुल्लिङ्गे हलन्तपदं स्त्रीलिङ्गे अजन्तपदम्. अस्तु अग्रे सूर्यकुमारी भगिनि.
बुद्धिः अस्ति, तया आत्मनियन्त्रणं करणीयम्.
तत्र तया इत्युक्ते, तया इत्युक्ते अन्वयः कुत्र अस्ति? तया इत्युक्ते, तया इति पदस्य अन्वयः कुत्र अस्ति?
कुत्र
कुत्र अस्ति इत्युक्ते तया इत्युक्ते किम् इति. तया
अस्ति,
तया तया इति किं सूचयति? तया इति पदं पूर्वस्मिन् वाक्ये किं पदं सूचयति? कर्तृपदं किम् अस्ति पूर्वस्मिन् प्रथमवाक्ये?
बुद्धिः.
हा इदानीम् अतः तत्र बुद्धिः, तया इत्युक्ते बुद्धिः. इदानीं तत्र तया इति विभक्तिका
स्त्रीलिङ्गपदं,
हा स्त्रीलिङ्गपदं तृतीया
विभक्तिका.
हा इदानीम् अतः तत्र तया
बुद्धया
बुद्ध्या
बुद्ध्या
मतिः इति अस्ति खलु तत्र मतिः
इकारान्त
मतिः मत्या इति मत्या इति एव अस्ति भगिनि
अकारान्त अस्ति चेत् भवति चीतया इति बुद्धया नास्ति बुद्धिः
बुद्ध्या
विशुद्धया
हा विशुद्धया
बुद्ध्या आत्मनियन्त्रणं करणीयम्
हा तया विशुद्धया बुद्ध्या आत्मनियन्त्रणं करणीयम् तत्र आत्मनियन्त्रणम् इति पदस्य विभजनं कुर्मश्चेत् किं भवति आत्मा आत्मा कस्य नियन्त्रणम् आत्मा इति अस्ति तस्य षष्टिः हा षष्टिः आत्मनः करणीयम् अतः तत्र तया विशुद्धया बुद्ध्या आत्मनः नियन्त्रणं करणीयम् इति विभज्य वक्तुं शक्नुमः अथवा आत्मनियन्त्रणं समीचीनं भगिनि अस्तु अग्रे शुभदा भगिनि
सः उन्नतः वृक्षः तस्मात् फलं पतति तस्मात् इति पञ्चमी विभक्ति एकवचनं तस्य अन्वयः उन्नतः वृक्षः एतेन सह अस्ति अतः तस्मात् उन्नतात् वृक्षात् फलं पतति
हा तावदेव तस्मात् उन्नतात् वृक्षात् फलं पतति अपि तत्र सः इति अपि दत्तमस्ति अतः तत्र तस्मात् इति सुलभेन कर्तुं शक्यते समीचीनं भगिनि
उन्नतः महोदय उन्नतः एव
उन्नतः इति अस्ति उन्नतः इति कीदृशपदमस्ति अकारान्तपदमस्ति
उन्नत ओके
अतः तत्र पञ्चमी एकवचनरूपं किं भवति
उन्नतात् वृक्षात्
हा तत्र पञ्चमी अर्थे तत्र तः इति अपि योजितुं शक्नुमः खलु हा तत् कुर्मश्चेत् किं भवति किञ्चित् क्लेशः भवति किन्तु रूपं किम् अस्ति
ततः उन्नततः
अतः तत्र एतादृशवाक्यं परीक्षायां प्रष्टुं शक्नुमः अस्य वाक्यस्य अर्थः कः इति अस्तु अस्तु अग्रे गीताञ्जलि भगिनि तत्र अग्रिम अभ्यासः तं आरम्भं करोति वा
आं महोदय विशेषस्य विभक्त्यनुगुणं विशेषस्य अपि
विशेषणस्य अपि
क्षम्यता महोदय विशेषस्य विभक्त्यनुगुणं विशेषणस्य अपि विभक्तिं वचनं च परिवर्त्य लिखत
अतः तत्र कर्तृपदं सर्वदा अर्जुनः अपि तत्र विशेषणं विशेष्यं किं भवति वाक्ये यानि वाक्यानि दत्तानि सन्ति तत्र यदि पश्यति चेत् तत्र सर्वदा विशेष्यं किम् अस्ति कर्तृपदं नास्ति क्रियापदं नास्ति
विशेष्यम् इत्युक्ते
एतेषु वाक्येषु विशेष्यं कर्मपदम् अस्ति सर्वदा
ओ अस्ति अस्ति वा अत्र न जानामि शङ्खं
ओ न सर्वदा न सर्वदा न क्षम्यतां भगिनि अस्तु किन्तु कर्तृपदं नास्ति
इत्युक्ते विशेष्यपदम् इत्युक्ते यत् पदं विशेषणं विवृणोति
विशेषणं विशेष्यस्य विवरणं
विशेष्यस्य पदस्य विवरणं ददाति विशेषणम् इति
सत्यं सत्यं
प्रथम तु अर्जुनः दिव्यं शङ्खं धमति
तत्र विशेष्यं किं विशेषणं किं
विशेष्यं तु शङ्खं
कीदृशं कीदृशं
शङ्खं तु मुख्य किं वस्तु अस्ति, मुख्यकर्मपदम् अस्ति तत्र शङ्खमेव, शङ्खं धमति, कीदृशशङ्खं? दिव्यं शङ्खम्,
दिव्यं शङ्खं धमति,
धमति. अग्रिमतु अर्जुनः योधान् मारयति, कीदृशयोधान्? क्षम्यताम्, दुष्टान् योधान् मारयति.
तावदेव, दुष्टान् योधान् इति द्वितीयविभक्ति बहुवचनं,
बहुवचन.
अतः
योधृ शब्दस्य महोदय न जाने
किं भगिनि,
योधान् प्रातिपदिकं योधृ वा?
न न न, तत्र योधः इति चिन्तयामि,
योधः,
योधः इति वा
रामवत् वा? रामवत्
योधः एव,
योधः.
योधृ एकम् अन्य प्रातिपदिकम् अस्ति न महोदय?
आम्, योद्धा, योद्धारौ, योद्धारः, योद्धारं.
न न, अर्थ अर्थसमानं, योद्धारः तत्र योद्धारं,
योधृन्,
योधृन् इति अस्ति, किन्तु अत्र योधान् इति अस्ति. पितृन्, मातृन् इति, योधृन्, कर्तृन् इति, किन्तु एतत्तु योधान्.
यदि तत्पदम् अस्ति चेत् तु योधृन् मारयति,
योधृन्
मारयति
इति. समीचीनं भगिनि, अस्तु. अग्रे रघुवीरनन्दस्वामी, योधान् एकवचनं नास्ति भगिनि, बहुवचनं.
रामान्
अकारान्तपदमस्ति भगिनि, योधः, योधाः, योधं, योधान् इति.
क्षम्यता,
चिन्ता मास्तु भगिनि. अस्तु, रघुवीरनन्दस्वामी अग्रे.
महोदय, अर्जुनः ज्येष्ठ अग्रजात् आशीर्वादं प्राप्नोत्. अग्रजात् आशीर्वादं प्राप्नोति, कस्मात् अग्रजात्? ज्येष्ठात् अग्रजात् आशीर्वादम् अर्जुनः प्राप्नोति.
समीचीनं महोदय. इदानीं तत्र अर्जुनस्य अग्रजद्वयमस्ति इति कृत्वा तत्र द्विवचने वक्तुम् इच्छामश्चेत् तत्र किं भवति?
ज्येष्ठाभ्याम् अग्रजाभ्याम् आशीर्वादं प्राप्.
समीचीनं महोदय, तावदेव समीचीनम्. अस्तु, अग्रे लक्ष्मी भगिनि.
अस्तु महोदय, अर्जुनः ज्ञानिन् भीष्माय जलं ददाति. भीष्माय चतुर्थी विभक्ति, अतः ज्ञानिन् शब्दस्य चतुर्थी ज्ञानिने. अर्जुनः ज्ञानिने भीष्माय जलं ददाति.
अर्जुनः कस्मै जलं ददाति? ज्ञानिने
भीष्माय जलं ददाति.
समीचीनं भगिनि, अस्तु. अग्रे रघुपति महोदय.
महोदय, अर्जुनः कृष्णं नमति अस्ति, नमति चक्रिन् इति अस्ति, अतः चक्रिणम् इति, चक्रिणं कृष्णं नमति.
समीचीनं, प्रायशः अत्र तत्
चक्रीकृष्णः, चक्रिणं कृष्णम् इति भवति.
समीचीनं, प्रातिपदिकं दत्तमस्ति, अतः नकारान्तप्रातिपदिकं चक्रीकृष्णः, चक्रिणं कृष्णं नमति.
चक्रिणं कृष्णं नमति,
नमति. समीचीनं, अस्तु. अग्रे सूर्यकुमारी भगिनी.
अर्जुनः स्वकीय पुत्रं स्मरति. पुत्रं स्वकीयं पुत्रं स्मरति.
अर्जुनः स्वकीयं पुत्रं स्मरति.
निजन्तपदं
स्वकीयः, अजन्तपदम्,
अजन्तपदं,
अकारान्त, देवशब्दवत्. समीचीनम्
अपि च अर्जुनः स्वस्य पुत्रं स्मरति समानार्थक न
समानार्थक किन्तु तत्र स्वस्य इति किं भवति तत्र विशेषणं न भवति किन्तु स्वकीयं विशेषणं भवति पुत्रस्य पुत्रपदस्य
स्वकीयं स्वकीय कीदृशपदं महोदय
तत्र स्व इति अर्थे सम्बन्धः अस्ति इति स्व इति
भूतकालार्थ
न न भूतकाल नास्ति तत्र भारतीयः भारतीयः इति तत्र प्रत्ययः कः इति न स्मरामि तत्र भारतः
तत्र
अतः तत्र सम्बन्धः यत्र अस्ति एतादृशरूपं भवति अतः अत्र सम्बन्धः कुत्र अस्ति स्व इति पदस्य तत्र सम्बन्धः अस्ति इति कृत्वा तत्र स्वकीय इति मदीय भारतीय किं भगिनि एकनिमिषं भगिनि तत्र हा गीताञ्जलि भगिनी वदतु तत्र
पुल्लिङ्गं पदमेव
भगिनि तत्र स्वकीयः इति पुल्लिङ्गरूपं स्वकीया इति स्त्रीलिङ्गरूपं विशेषणं भवति स्वकीयं स्वकीयं कार्यम् अथवा स्वकीयं पुस्तकं स्वकीया पुत्री स्वकीया पुत्री स्वकीयः पुत्रः हा सूर्यकुमारी भगिनी वदतु भगिनि इदानीं
अभ्यासं कुर्वती अस्ति
ओ अभ्यासं कुर्वन्ती अस्ति आसीत् अस्तु 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 हा हा
महोदय क्षम्यता महोदय भारतीय तु पुंलिङ्गं रूपं भारतीया स्त्रीलिङ्गं रूपं वा
इति मन्ये भगिनि भारतीयः भारतीया
भारतीया स्त्री
इति महिला
भारतीया महिला हा
भारती
भारतीयं पुस्तकं
भारतीयं पुस्तकम् अस्ति
भारतीयग्रन्थः अस्तु अस्तु अग्रे इदानीं तत्र शुभदा भगिनि
अर्जुनः तीक्ष्ण इति दत्तमस्ति शरेण हन्ति शरेण इति तृतीयाविभक्ति एकवचनं तस्य विशेषणमपि तृतीयाविभक्ति एकवचने भवति अतः तीक्ष्णेन सो अर्जुनः तीक्ष्णेन शरेण हन्ति
हा अर्जुनः तीक्ष्णेन शरेण हन्ति समीचीनं भगिनि अस्तु अस्तु अग्रे रघुपति महोदय
अर्जुनः कृष्णे विश्वसिति तदेव अस्तु अत्र निपुणे कृष्णे विश्वसिति इति
निपुणः कृष्णः
निपुणः कृष्णः निपुणे कृष्णे
निपुणे कृष्णे
विश्वसिति इति यथा सप्तमी भक्ति भवति
समीचीनम् अस्तु अग्रे लक्ष्मी भगिनि
अर्जुनः धर्म्य कर्म आचरति कर्म इति द्वितीयाविभक्ति
किन्तु नपुंसकलिङ्गपदं
नपुंसकलिङ्गपदं धर्म्या धर्म्या एव वा
हा तदपि तत्र धर्म्या इति तत्र वनं वने वनानि तत्र अकारान्तपदम् इति मन्ये धर्म्यम् इति प्रायशः धर्म्यं कर्म
आचरति
इति मन्ये भगिनि तत्र धर्म्यः धर्म्यम् इति अकारान्तरूपमेव स्वीकृतं यतोहि तत्र धर्म्य इति प्रातिपदिकम् अस्ति अतः कीदृशप्रातिपदिकं कीदृशं प्रातिपदिकम् एतद् अकारान्त वा इकारान्त वा किं धर्म्य इति अकारान्त खलु भगिनि तत्र प्रातिपदिकमेव दत्तमस्ति यत् पदं दत्तमस्ति तदेव प्रातिपदिकं वनम् इति पदस्य नपुंसकलिङ्गपदस्य प्रातिपदिकम् अस्ति वन अत्र धर्म्य इति दत्तमस्ति धर्म्य इति प्रातिपदिकम् अतः धर्म्यं कर्म आचरति धर्म्यम् इति वनं पदमिव भवति हा इति समीचीनं भगिनि अस्तु वदतु महोदय
न धर्मयुक्तकर्म
धर्मयुक्तकर्म तत्र
धर्म तत्र
समीचीनं अस्तु अग्रे रघुवीरनन्दस्वामी
आं महोदय आत्मीयबन्धुभ्यः गीतः गीतः इति चतुर्थी वा महोदय
पञ्चमी महोदय
पञ्चमी
कस्मात् भीतः इत्येव
भय पञ्चमी
भय अस्ति
आत्मीयः महोदय अर्जुनः आत्मीभ्यः
तत्र आत्मीयः इति अकारान्तपदं देवः
आत्मीयेभ्यः बन्धुभ्यः
देवेभ्यः देवेभ्यः इति अस्ति खलु भगिनी महोदय
देवः देवेभ्यः महोदय
अतः आत्मीयः किं भवति
ओ महोदय अस्तु बहुवचनं सत्यं महोदय क्षम्यतां बन्धुभ्यः आत्मीयेभ्यः बन्धुभ्यः भीतः अर्जुनः
हा समीचीनं हा समीचीनम् आत्मीयेभ्यः बन्धुभ्यः अर्जुनः भीतः समीचीनं महोदय अस्तु गीताञ्जलि भगिनि
अर्जुनः महत् स्यन्दने तिष्ठति स्यन्दने तु सप्तमी महति स्यन्दने तिष्ठति
तावदेव समीचीनं भगिनि अर्जुनः महति स्यन्दने तिष्ठति समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनि
अर्जुनः विपरीतानि निमित्तानि पश्यति
हा विपरीतानि निमित्तानि पश्यति विपरीत इति पदस्य प्रथमविभक्तिरूपं किम् अस्ति
विपरीतम्
हा विपरीतम् इदानीं द्विवचने
विपरीतम्
न न द्विवचने द्विवचने
विपरीतं विपरीते
विपरीतानि इदानीं निमित्तानि पश्यति अर्जुनः समीचीनं भगिनि हा अस्तु अग्रे शुभदा भगिनि
अर्जुनः अवस्थितान् बन्धून् समीक्षते द्वितीयवचने
समीचीनं हा बन्धून् इति तत्र बन्धुः
गुरुवत् द्वितीयविभक्ति बहुवचनं
समीचीनं
अवस्थितान् बन्धून् समीक्षते
समीचीनं भगिनि बन्धवः सन्ति अवस्थिताः बन्धवः सन्ति अर्जुनः तान् अवस्थितान् बन्धून् समीक्षते समीचीनं अग्रे लक्ष्मी भगिनि
अर्जुनः दिव्य चक्षुषा पश्यति चक्षुषा तृतीया एकवचनरूपम् अतः दिव्य दिव्येन अर्जुनः दिव्येन चक्षुषा पश्यति
समीचीनं भगिनि अस्तु अग्रे रघुपति महोदय
अर्जुनः कृष्णस्य प्रकृतिं न जानाति देववरः कृष्णः देववरस्य कृष्णस्य प्रकृतिं न जानाति
अस्तु महोदय अर्जुनः देववरस्य कृष्णस्य प्रकृतिं न जानाति समीचीनम् अस्तु गीताञ्जलि भगिनि
अर्जुनः प्रसन्न भगवतः अनुग्रहं प्राप्नोति प्राप्नोति अनुग्रहं तु कर्मपदं भगवतः अनुग्रहम् इत्युक्ते
एकनिमिषं भगिनि सूर्यकुमारी भगिनि एकनिमिषम् एकनिमिषं भगिनि हा क्षम्यताम् अस्तु
अनुग्रहं प्राप्नोति अनुग्रहं तु द्वितीय इत्युक्ते भगवतः तु इत्युक्ते कस्मात्
अनुग्रहः न न कस्मात् इति न प्रायशः कस्मात् इति अपि भवेत् अन्यत् अपि अस्ति
भगवतः तु बहु
भगवतः इति विभक्ति का भगवतः इति पदस्य विभक्ति का
हा पञ्चमी षष्टि
एकवचनं अपि तत्र भगवतः तद् द्वितीया बहुवचनमपि भवति किन्तु मास्तु
मास्तु तत्र अत्र पञ्चमी अपि षष्टि
इदानीम् अतः तत् स्वीकृत्य वाक्यं वदतु अर्जुनः
पञ्चमी वा महोदय
अहं चिन्तयामि तत्र कस्य अनुग्रहम् इति
ओ कस्य अनुग्रहम्
इति किन्तु अतः कस्य इति एकवारं वदतु तदनन्तरं चिन्तयामः
यदि कस्य अस्ति कस्य अनुग्रहं प्राप्नोति तदनन्तरं भगवतः अनुग्रहं कीदृश भगवतः प्रसन्नस्य भगवतः अनुग्रहं प्राप्नोति यदि पञ्चमी अस्ति चेत् प्रसन्नात् भगवतः अनुग्रहं प्राप्नोति इति
अथवा प्रसन्नतः भगवतः अनुग्रहं प्राप्नोत् प्रसन्नतः तदपि पञ्चमी अर्थे
प्रसन्नतः अधुना साधु किन्तु न जानामि
किन्तु अहं चिन्तयामि भगिनि षष्टी एव समीचीनम् इति अन्ये किं चिन्तयन्ति तत्र पञ्चमी भवितुम् अर्हति वा अत्र रघुपतिमहोदय किं चिन्तनम्
प्रसन्न
तत्र भगवतः अनुग्रहं प्राप्नोति इति अस्ति अर्जुनः भगवतः
अनुग्रहम् इति अनुग्रहं कस्य अनुग्रहम् इति
अनुग्रहम् एव खलु तत्र कस्मात् इति न भवति खलु कस्य एव अतः तत्र प्रसन्नस्य भगवतः अनुग्रहं प्राप्नोति इति एव
अस्तु इत्युक्ते कस्य
एव समीचीनम् इति मन्ये किन्तु अभ्यासार्थं तत्र पञ्चमी रूपं किं भवति तदपि वयं चिन्तितवन्तः
तदपि भवितुम् अर्हति खलु अस्माकं विवक्षा अस्ति कारक इति अस्माकं विवक्षानुसारं भवति आमां यदि मम विवक्षा इदानीं शिष्यः सारी गुरुः शिष्यं पाठं पाठयति इति अस्ति शिष्याय पाठं पाठयति इति भवितुम् अर्हति इति अस्माकं विवक्षा अस्ति चेत् इति वयं पठितवन्तः एकवारं तत् कारकविभक्तिप्रकरणे वक्तुः विवक्षा यदस्ति तदनुगुणं भवति इति अस्ति अतः
भवितुम् अर्हति किन्तु अत्र तु महोदय मन्ये
साधारणरूपम् अथवा साधारणप्रयोगः अस्ति षष्टि भगिनि किन्तु किन्तु अन्यदपि भवितुम् अर्हति किन्तु यत् तत्र साधारणरूपं यदस्ति तदेव स्वीकुर्मः सूर्यकुमारी भगिनी भवती किमपि वक्तुम् इष्टवती वा
न महोदय
अस्तु तत्र पञ्चमी
महोदय अनुग्रहम् इति तत् यदि यदि यत् तत् कृदन्तपदमस्ति चेत् षष्टि एव भवति इति षष्टि एव भवति इति अस्ति
तत्र पठनम् इति
आमां कर्तकर्णः इति षष्टि इति अस्ति तत्र षष्टि एव भवति अथवा इति अस्ति तत्र अतः अत्र अहं चिन्तयामि अनुग्रहम् इति कृदन्तपदमस्ति अतः षष्टि विभक्ति भवेत् इति
अस्तु महोदय अतः तत्र अस्तु अतः तत्र आधिक्येन तत्र षष्टि परः एव तत्र कारणानि सन्ति
आमां पठनम् इति तत्र यत् भवति ध्या पठनं गमनम् इति अत्र तत्र सर्वत्र षष्टिविभक्ति एव भवति खलु अतः तत्र कृदन्तपदमस्ति अतः
अस्तु समीचीनम् अतः
तादृशचिन्तनं कुर्मः चेत्
अनुगृह्णाति अनुगृह्णाति अनुग्रहण अनुग्रहम् पठति पठनम् अनुगृह्णाति अनुग्रहम्
युडन्तम् अनुग्रहणम् अस्ति किन्तु अत्र तु अनुग्रहम् एव अत्र अनुग्रहणं न
हा किन्तु तादृश अर्थे अस्ति भगिनि षष्टि इति स्वीकुर्मः. अस्तु
अस्तु
प्राप्नोत् 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 इति किम् अस्ति
प्राप्नोत्
किमस्ति
लग्लकारूपमस्ति
आप्नोत् आप्नोत् प्र उपसर्गः आप्नोति प्राप्नोति तद् भवति प्राप्नोत्. अस्तु अग्रे रघुवीरनन्दस्वामी अग्रिम अभ्यासः यः अस्ति तम् आरम्भं करोति वा
महोदय. उचितं विशेषणविशेष्यभावसहितं शब्दद्वयं योजयत परं चेतसा. अत्र
चेतसा इति हा तत्र महोदय तत्र शब्दद्वयं योजनीयमस्ति. तत्र परम् इति उपयुज्य तत्र चेतस् इति पदस्य परिवर्तनं कर्तुं शक्नोति. तत्र पदद्वयं दत्तमस्ति महोदय. तत्र
विभक्तिं
तत्र विभक्ति अपि तत्र विभक्तिविषये वा अथवा वचनविषये प्रायशः सामान्यं न भवति. किन्तु वयमेव तत्र चित्वा अस्तु अहम् एतस्य पदस्य परिवर्तनं करोमि इति अतः तत्र परम् इति पदस्य परिवर्तनं कर्तुं शक्नोति अथवा चेतसा इति पदस्य अपि परिवर्तनं कर्तुं शक्नोति भवतः इच्छा
महोदय. परमेण चेतसा
हा परमेण चेतसा समीचीनं. तत्र तृतीया एकवचनम् इति समीचीनं महोदय. तावदेव तत्र अन्यत् किमपि नास्ति इति मन्ये. हा अस्तु अग्रे लक्ष्मी भगिनी.
हा अस्तु महोदय. एतत्तु तादृशं नास्ति इति अहं मन्ये. परम् इति विभक्ति यत् विभक्ति अस्ति तस्य तेन सह किं किं शब्दः मैच् भवति.
न न चेतसा इति अस्ति खलु
परम्
विशेष्यं
ब्रह्म इति सहेन
न न न न न अस्तु. किन्तु भगिनि एकनिमिषः यत् भवती उक्तवती तत्तु सत्यम्. एकनिमिषः रघुवीरनन्दस्वामी भवान् किम् उक्तवान् तत्र तत्र चेतसा इति पूर्वं परम् इति पदस्य रूपं किं स्वीकृतमासीत्.
परं परमेण चेतसा इति उक्तवान्.
किन्तु महोदय तत्र परम् इति प्रायशः प्रातिपदिकम् अस्ति इति महोदय. परं वनं वनम् इति वनं नपुंसकलिङ्गे अस्ति खलु अतः वनम् अस्ति चेत् तृतीय एकवचनं किम् अस्ति.
तदेव खलु परमेण चेतसा.
न न वनम् अस्ति चेत् वनेन
परेण चेतसा महोदय.
हा परेण चेतसा हा
सत्यं महोदय.
परमेण
धन्यवादाः.
परेण तदेव मम मनसि क्लेशः आसीत्. हा परेण परेण चेतसा इति रूपं
भिन्नमस्ति.
हा हा इदानीं शुभदा भगिनी. हा इदानीं वदतु भगिनी. हा
भगवती
तत्र सावधानं करणीयम् आसीत्. हा तत्र सावधानं
तादृशं नास्ति इति अहं मन्ये. मेच् मेकिङ्ग् अस्ति परम् इति शब्दस्य शब्देन सह ब्रह्म इति शब्द मेच् भवति. महति इति शब्देन सह स्यन्दने इति भवति. सप्तमी सप्तमी मेच् मेकिङ्ग्
अस्तु अस्तु भगिनि. अस्तु भगिनि अस्तु तदेव स्वीकुर्मः. अस्तु समीचीनमेव. अस्तु अतः ब्रह्म इति नपुंसकलिङ्गे अस्ति.
उचितेन उचितेन करेक्ट् करेक्ट्.
अस्तु 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 अतः तत्र परिवर्तनं न करणीयं केवलं तत्र योजनीयम्. अस्तु धन्यवादः भगिनी
महोदय. परं ब्रह्म
परं ब्रह्म. अस्तु महोदय
महती स्यन्दने
महति तदनन्तरं स्यन्दने
महती स्यन्दने स्थितौ सत्यम्.
अस्तु समीचीनम्. अस्तु
परमेण ब्रह्मणा इति भवति वा
पुनः परेण ब्रह्म एव ब्रह्मण
परम् इति परं ब्रह्म इति. अस्तु अस्तु परम् इति परं ब्रह्म इति एकवचने अस्ति खलु
परं ब्रह्म तत्तु समीचीनं महोदय, किन्तु तत्र पर इति
वनम् ओ अस्तु अस्तु वनं वनं परेण परेण ब्रह्मण ब्रह्म अस्तु
अस्तु अग्रे समीचीनं धन्यवादः शुभदः भगिनी धन्यवादः हा इदानीं हा मम मनसि तत्र अभ्यासस्य इच्छा का इति मम मनसि न सम्यक्तया नासीत् धन्यवादः भगिनी हा
अस्तु महोदय
अस्तु अस्तु भवती एव अग्रे करोतु भजतामिति
भजतामिति षष्ठी बहुवचनं भजतां
भजतां भक्तानां इति इदानीं तत्र प्रथमविभक्ति एकवचनं रूपं किम् अस्ति
प्राब्लम् भजतां
तत्र भक्तः
भवत् भवत् शब्दवत्
प्रातिपदिकं तु भवत् एव भजत् इति शत्रन्तरूपं भगिनि शत्रन्तरूपं
भजन् भजन्
हा भजन् भक्तः भजन् भक्तः भजतां भक्तानां
भजतः
भजतः भक्तस्य इति समीचीनम् अस्तु अग्रे सूर्यकुमारी भगिनि नान्यगामिना न अन्यगामिना
नान्यगामिना चेतसा
नान्यगामिना चेतसा तदेव इति अस्तु तत्र
नारायणेन
तत्र अस्तु तत्र भगवता भगवता नारायणेन
चेतसा नान्यगामिना
हा नान्यगामिनः समीचीनं तमेव तदेव समीचीनम् अस्तु हा अस्तु न न न समीचीनं भगिनि तत्र नान्यगामिना चेतसा समीचीनम् अस्तु लक्ष्मी भगिनी अग्रे
भगवता नारायणेन
हा भगवता नारायणेन प्रथमविभक्ति एकवचनरूपं किम् अस्ति
भगवान् नारायणः
भगवान् नारायणः समीचीनम् अस्तु गीताञ्जलि भगिनि
हृष्टरोमा
एकवचने अस्ति
एकवचने प्रथमविभक्ति अस्ति भगिनि
हा किन्तु तत्र तु त्रीन् धनञ्जय चक्रीरम्
तत्र पुल्लिङ्गपदम् अस्ति हृष्टरोमा धनञ्जयः
धनञ्जयः वा
अर्जुनः तत्र हा हृष्टरोमा यस्य रोमाः हृष्टाः तत्र
इलेक्ट्रिफैड्
हा तत्र
कीदृशपदं हृष्टरोमा
आकारान्त सारी नकारान्त पुल्लिङ्गपदम्
हृष्टरोमन् वा
तत्र तत्र बहुव्रीहि समासः अस्ति भगिनि तत्र यस्य इति यस्य रोमाः हृष्टाः सः
तस्य अर्थः किं महोदय
तत्र रोमा रोमा इत्युक्ते हेर्स् इति अस्ति खलु रोमा
यस्यास्मिन् अस्ति इति मनीन् प्रत्ययः अस्ति अतः देहिन् इति खलु देही इति
तत्र देहिन् his hairs are standing up bagini tatra
pratipadikam kim
electrified iti vadama kala tatra his tatra hairs standing trishtaroma tatra
roma harshascha jayate tatra
ha satyam satyam ha samanartha ka sam tadeva asti bagini ha tadeva
roman
na na etat binna mate roman iti asya roma asti tad roman bhavati yasya deha dehin iti dehi asti dehin iti
ha etat roma vishe nasti kintu yasya roma ha yasya roma ha hrishtah iti
हृष्टरोमा समासपदं नकारान्त प्रातिपदिकम् अस्ति न जानामि अहं
धन्यवादः अस्तु अग्रे रघुपति महोदय
आं महोदय किरीटिनम् इति द्वितीयविभक्ति अस्ति किरीटिनम् एकवारं चक्रिणम् इति
किरीटिनं चक्रिणं समीचीनं अस्तु. इदानीं तत्र रघुवीरानन्दमहोदय अन्तिमम् अस्तु न न श्रूयते
महोदय.
अस्तु
तान्त्रीन्
समीचीनमस्ति तान्त्रीन् समीचीनम् अस्तु. इदानीम् अग्रे गच्छामः.
तान्त्रीन् द्वितीय
सत्यं सत्यं तान्त्रीन्
द्वितीय पुरुषलिङ्गं
त्रयः त्रीणि
त्रयः
इत्यस्य
त्रयः इति पदस्य त्रीणि इति रूपं. ते त्रयः तान् त्रीन् तत्र ते त्रयः वृक्षाः तान् त्रीन् वृक्षान् भवति पश्यति
तैः त्रिभिः वा तैः त्रिभिः तेभ्यः
इति समीचीनम् अस्तु. अस्तु अग्रे रघुपतिमहोदय तत्र अग्रिम अभ्यासः आरम्भं कृतवान्.
अस्तु महोदय. मञ्जूषायाः उचितानि विशेषणपदानि चित्वा रिक्तस्थानं पूरयत. ईश्वरः सर्वभूतानि मायया भ्रामयति. सर्वभूतानि मायया अस्तु अस्तु. ईश्वरः सर्वभूतानि अति अस्ति अत्र तस्य विशेषणं भवति. यन्त्ररूढानि सर्वभूतानि यन्त्रारूढानि सर्वभूतानि मायया भ्रामयति. एकवारं महोदय.
तदेव अस्ति इति मन्ये महोदय.
तदेव अस्ति
तदेव तत्र यत् पदम् अपेक्षितमस्ति तदस्ति विशेषणम्. अतः तत्र समानविभक्ति
अत्र बहुवचनं बहुवचनं यन्त्ररूढः इति नास्ति. अत्र बहुवचनमस्ति प्रथमं तु तृतीय तृतीयविभक्ति अस्ति अतः तदपि
यन्त्रारूढानि सर्वभूतानि मायया भ्रामयति. तत्र नपुंसकलिङ्गे अस्ति किन्तु तत्र कर्मपदम् अस्ति भ्रामयति. समीचीनं
तदेव समासः अस्ति महोदय.
तत्र यन्त्रारूढ आरूढः सन्ति तत्र सर्वभूतानि यन्त्रारूढानि सन्ति.
वर्णमेलनमेव
समासः
समासः आरूढः इति
यन्त्रस्य अथवा यन्त्रे
यन्त्रे आरूढः यन्त्रारूढः इति
यन्त्रारूढः
यन्त्रेषु आरूढाः यन्त्रारूढाः इति भवति.
तत्र सप्तमी तत्पुरुष इति
आम् चिन्तयामि. अर्थः ज्ञात्वा एव वक्तुं शक्नोमि.
अतः अस्तु किन्तु तत्र यन्त्ररूढानि इति समीचीनम् अस्तु. अग्रे सूर्यकुमारी भगिनी अग्रे.
त्वं शिष्येन व्यूढां सेनां पश्य. तृतीय विभक्तिः एकवचनं धीमता शिष्येन व्यूढां सेनां पश्य.
तत्र सेनां पश्य व्यूढाम् इत्युक्ते
विशेषरूपेण योजितम् अस्ति.
तत्र निर्मितम् इति तत्र निर्मितम् इति तत्र शिष्येन निर्मितं रचितम् इति तत्र व्यूढा व्यूढां कृतं तत्र तत्र सेनायाः किमपि तत्र आकारः भवति खलु. तत्र एते अत्र तिष्ठन्तु एते जनाः तत्र गच्छन्तु इति तत्र अतः तत्र व्यूढां सेनां केन व्यूढां तत्र शिष्येन कीदृशशिष्येन
धीमता
शिष्येन व्यूढां सेनां पश्य. एतत्तु तत्र दुर्योधनः दुर्योधनः कं वदति तत्र
द्रोणं वदति
त्वं धीमता शिष्येन व्यूढां सेनां पश्यति. अस्तु अग्रे लक्ष्मी भगिनी.
अस्तु महोदय. हयैः युक्ते स्यन्दने माधवः तिष्ठति. हयैः तृतीया बहुवचनरूपं. श्वेतैः हयैः युक्ते स्यन्दने माधवः तिष्ठति.
हा समीचीनं भगिनि. हा समीचीनं. हा युक्ते इति स्यन्दने इति पदस्य विशेषणं. हा अस्तु समीचीनम्. अस्तु अग्रे शुभदा भगिनि.
महोदय इन्द्रियाणि मनः हरन्ति. प्रमाथिनी नो
वस्तुनि वस्तु वस्तुः
वस्तूनि वस्तूनि प्रमाथीनि अन्तिमम् अन्तिमं प्रमाथीनि इन्द्रियाणि मनः हरन्ति.
हा समीचीनं भगिनि. हा अस्तु अग्रे गीतांजलि भगिनि.
विद्वान् अज्ञानां बुद्धिभेदं न जनयेत्. ईदृश अज्ञानां कर्म
तत्र अज्ञानम् इति पदस्य विभक्ति वचनम् इति वक्तव्यं. किं विभक्ति का वचनं किम्?
अज्ञानम् अज्ञानम् षष्ठी बहुवचन.
अतः अत्रापि तत्र
कर्मसंज्ञिनाम्
तदपि समीचीनं वा? अज्ञानम् अज्ञः क्षम्यताम् अज्ञानम् अकारान्त एव
पुल्लिङ्गम् अकारान्त एव शब्दवत्. विद्वान् कर्मसङ्गिनां
अज्ञानां बुद्धिभेदं न जनयेत्
इति समीचीनं भगिनि.
जनयेत् तु विधिना महोदय.
हा हा सत्यं. हा न जनयेत् तद् मा करोतु. हा तद् मा भवतु. मास्तु. तद् मास्तु इति. अस्तु अस्तु इदानीं तत्र रघुवीरन्द्रमहोदय तत्र भवान् अनुमोदनं करोति वा?
अहं योगं विवस्वते प्रोक्तवान्. अहम् इमं योगं विवस्वते प्राप्तवान्
प्रोक्तवान्. हा विवस्वते प्रोक्तवान्. समीचीनम्. अहम् इमं योगं विवस्वते प्रोक्तवान्. विवस्वते चतुर्थी. हा अस्ति
समीचीनं.
किं भगिनि?
नपुंसकलिङ्गं
योगं. हा योगं नपुंसकलिङ्गं.
हा इदं भवति नपुंसकलिङ्गमस्ति चेत्
किन्तु तत्र तत्र इमम् इयम् इमे इति एव दत्तमस्ति महोदय. किन्तु प्रायशः इदम् इति एव
इमम् इति भवति खलु. इमम्
इमेव इमेव
इयम् इति स्त्रीलिङ्गे अस्ति.
स्त्रीलिङ्गे अपि इमे अपि वचनभेदः अस्ति. अतः तत्र इममेव. अस्तु समीचीनम् अस्ति. अस्तु अस्तु तर्हि तत्र सूर्यकुमारी भगिनी तत्र अन्ते तत्र शान्तिमन्त्रं वदति वा भगिनि?
सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कक्षिद्भवेत्. ॐ शान्ति शान्ति शान्तिः.
धन्यवादः भगिनी. सर्वेभ्यो नमः. धन्यवादः. धन्यवादः, नमस्कारः, शुभरात्रिः।